श्री परमात्मने नमः। अथ पञ्चदशोऽध्यायः पुरुषोत्तम प्राप्तियोगः। श्रीभगवानुवाच, ऊर्ध्वमूलमदशाखम् अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य परनानि यस्तं वेद स वेदवित्। अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः गुणप्रवृत्तविषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह ततो फलभ्यते। नान्तो न चादिर्न च सम्प्रतिष्ठ अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्वा ततः पदं तत्परिमागितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यथा प्रवर्तित प्रसृता पुराणि। निरमानमोहाज्जितसङ्गदोषाः अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैरिमुक्ता सुखदुःखसंज्ञैः गच्छन्त्यमूढा पदमव्ययं तत। न तद्भासयते सूर्यः न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम। ममैवांशो जीवलोके जीवभूद सनातनः। मनःषष्ठानि इन्द्रियाणि प्रकृतिष्ठानि करशति। शरीरं यदवाप्नोति यच्चाप्युत्क्रामतेश्वरः। गृहीद्वैतानि संयाति वायुर्गन्धानि वाशयात्। श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चाय विषयानुपसेवते। उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं। विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितं। यतन्तो प्रकृतात्मानः नैनं पश्यन्त्यचेतसः। यदादित्यगतं तेजः जगद्भासयतेखिलं। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं। गामावेश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधी सर्वाः सोमो भूत्वरसात्मकः। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमयुक्तः पचम्यनं चतुर्विधं। सर्वस्य चाहं हृदि सन्निविष्टः। मत्थस्मृतिर्ज्ञानमपोहनं च वेदैश्च सर्वैरहमेव विद्यः। वेदान्तकृद्विदविदेव चाहं। द्वाविमो पुरुषो लोके क्षर एव च। क्षर सर्वाणि भूतानि कुतस्थोऽक्षर उच्यते। उत्तमपुरुषस्त्वन्यः परमात्मेत्युदारितः यो लोकात्रयमाविश्य बिभर्त्य व्ययईश्वरः यस्मात्क्षरमथितोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो मामेवमसम्मुडः जानति पुरुषोत्तमम् स सर्वविद् भजति माम् सर्वभावेन भारत इति गुह्यत मां शास्त्रम् इदमुक्तं यमयानग एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः।